श्रीमद्भागवत महापुराणम् एकादशस्कन्धः अथ विंशोऽध्यायः। उद्धव उवाच, विधिश्च प्रतिषेधश्च निगमो हीश्वरस्य ते अवीक्षतेरविन्दाक्ष गुणं दोषै च कर्मणां। वर्णाश्रमविकल्पै च प्रतिलोमानुलोमजम् द्रव्यदेशवयःकालान् स्वर्गं नरकमेव च गुणदोषभिदा दृष्टि मन्तरेण वचस्तव। निःश्रेयसं कथं ऋणां निषेधविधिलक्षणम्। पितृदेवमनुष्याणां वेदश्चक्षुस्तवेश्वर श्रेयस्त्वनुपलब्धेऽर्थे साध्यसाधनयोरपि गुणदोषभिदा दृष्टिर्निगमातेन हि स्वतः निगमेनापवादश्च भिदाया इति ह भ्रमः। श्रीभगवानुवाच, योगास्त्रयो मया प्रोक्ता नृणां श्रेयो विधित्सया ज्ञानम् कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित्। निर्विण्णानाय ज्ञानयोगो न्यासिनामिह कर्मसु तेष्व निर्विण्णचित्तानां कर्मयोगस्तु कामिनाम्। यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः। तावत्कर्माणि कुर्वीत न निर्विद्येत यावता। मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते। स्वधर्मस्थो यजन्यज्ञैरनाशीक् काम उद्धव नयाति स्वर्गनरकौ यद्यन्यन्न समाचरेत्। अस्मिन् लोके वर्तमानस्वधर्मस्थो नघः शुचिः ज्ञानौ विशुद्धमाप्नोति मद्भक्तिर्वा यदृच्छया। स्वर्गिणोऽप्येतमिच्छन्ति लोकं निरयिणस्तथा साधकै ज्ञानभक्तिभ्यामुभयं तदसाधकम्। न नरस्वर्गतिङ्काङ्क्षीन्नारकीर्वा विचक्षणः नेमल्लोकै च काङ्क्षेत देहावेशात् प्रमाद्यति। एतद्विद्वान् पुरा मृत्योरभवायज्ञ रसः अप्रमत्तैर्दय्यात्त्वामर्त्यमप्यर्थसिद्धिदम् छिद्यमानैयमैरेतैः कृतनीडौ वनस्पतिम् खगस्वकीतमुत्सृज्य क्षेमय्यातियलं पटः अहोरात्रैश्चिद्यमानं बुद्ध्वायुर्भयवेपथुः मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति नृदेहमाद्यं सुलभं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारम् मयानुकूलेन नभस्वतीरितम् पुमान् भवाभिन्नतरेत् स आत्मः यदारम्भेषु निर्विण्णो विरक्तः संयतेन्द्रियः अभ्यासेनात्मनो योगी धारयेदचलं मनः धार्यमाणं मनो यर्हि भ्राम्यदाश्वनस्थितम् अतन्द्रितोऽनुरोधेन मार्गेणात्मवशन्नये मनोगतिन्न विसृजे जितप्राणो जितेन्द्रियः सत्त्वसम्पन्नया बुद्ध्या मनात्मवशन्नयेत् एष वै परमो योगो मनसस्सङ्ग्रहस्मृतः हृदयज्ञत्वमन्विच्छन्दं यस्येवार्वतो मुहुः साङ्ख्येन सर्वभावानां प्रतिलोमानुलोमतः भवाप्ययावनुध्यायेन्मनो यावत् प्रसीदति निर्विण्णस्य विरक्तस्य पुरुषस्योक्तवेदिनः मनस्त्यजति दौरात्म्यै चिन्तितस्यानुचिन्तया यमादिभिर्योगपथैरान्वीक्षिक्या च विद्यया ममार्चोपासनाभिर्वानान्यैर्योग्यं स्मरेन्मनः यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् योगेनैव दहेदं हो नान्यत्तत्र कदाचन स्वे स्वेधिकारे अनिष्ठा सगुणः परिकीर्तितः कर्मणाय जात्यशुद्धानामनेन नियमः कृतः गुणदोषविधानेन सङ्गानान्त्याजनेच्छया जातश्रद्धो मत्कथासु निर्विण्णः सर्वकर्मसु वेददुःखात्मकान् कामान् परित्यागेऽप्यनीश्वरः ततो भजेत मां प्रीतः श्रद्धालुर्दृढनिश्चयः जुषमाणश्च तान् कामान् दुःखोदर्कांश्च गर्हयन् प्रोक्तेन भक्तियोगेन भजतो मासकृन्मुनेः कामारुदया नश्यन्ति सर्वे मयि हृदि स्थिते भेद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः न ज्ञानं न च वैराग्यं प्रायश्रेयो भवेदिह यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् योगेन दानधर्मेण श्रेयोभिरितरैरपि सर्वं मद्भक्तियोगेन मद्भक्तो लभते जसा स्वर्गापवर्गं मद्धाम कथैचिद्यदि वाञ्छति न केचित् साधवो धीरा भक्ता ये कान्तिनो मम वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् नैरपेक्ष्यं परं प्राहुर्निःश्रेयसमनल्पकम् तस्मान्निराशिषो भक्तिर्निरपेक्षस्य मे भवेत् न मय्येकान्तभक्तानां गुणदोषोद्भवागुणाः साधूनां समचित्तानां बुद्धेः परमुपेयुषाम् एवमेतान् मयादिष्टाननु तिष्ठन्ति मे पथः क्षेमौ विन्दन्ति मत्स्थानै यद्ब्रह्म परमौ विदुः इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे विंशोऽध्यायः ॐ सर्वं श्रीकृष्णार्पणमस्तु।